श्रुतिस्मृतिपुराणानाम् आलयम् करुणालयम् नमामि भगवत्पादशङ्करम् लोकशङ्करम् शङ्करम् शङ्कराचार्यम् केशवम् बादरायणम् सूत्रभाष्यकृतौ वन्दे भगवन्तौ पुनः पुनः नमो गुरुभ्यः। आदौ अधीत श्रीशङ्करदिग्विजयसारान् सर्वानपि छात्रान् अहम् अभिनन्दामि। भगवत्पादानां चरितमेव अत्यन्तं पुण्यमस्ति। तादृशं चरितं भवन्तः सर्वे अपि पठितवन्तः। इदञ्च चरितं विद्यारण्यमहास्वामिभिः सहस्राधिकैः श्लोकैः प्रतिपादितमस्ति। तस्य ग्रन्थस्य नामैव अस्ति माधवीयशङ्करदिग्विजयः इति। लोके प्रथितम् इदं काव्यम् ऐतिहासिकमिदम्। मध्ये अहं पृच्छामि, अहं शनैश्चनैः संस्कृतेन कथयामि, अपि ज्ञायते रघुनन्दनमहोदय?
अवश्यं गुरुवर्याः, अवश्यं ज्ञायते एव।
अहं शनैश्चनैः सरलेन संस्कृतेन वक्तुं प्रयत्नं करोमि। आदौ मया अयं श्लोकः उक्तः, श्रुतिस्मृतिपुराणानाम् आलयं करुणालयं नमामि भगवत्पादशङ्करं लोकशङ्करम् इति। श्रुतिस्मृतिपुराणानाम् आलयम् इति पदं तत्र श्रूयते। श्रुतिः नाम वेदः, ऋग्वेदः, यजुर्वेदः, सामवेदः, अथर्वणः वेदः इति वेदाः चत्वारः। पुराणानि अष्टादश सन्ति, पद्मपुराणं, स्कान्दपुराणम् इत्यादिभिः शब्दैः तानि पुराणानि व्यवह्रियन्ते। अष्टादशपुराणानि अपि भगवान् व्यासमहर्षिः रचयामास। लक्षाधिकाः श्लोकाः भवन्ति, लक्षाधिकाः श्लोकाः भवन्ति पुराणेषु। वेदे तु इदं वैशिष्ट्यमस्ति, इदानीम् एकस्य अनुवाकस्य, एकस्य सूक्तस्य किं बहुना, एकस्याः रुचः अर्थम् अवगन्तुं वयम् इदानीं क्लेशम् अनुभवामः। किन्तु चतुर्णामपि वेदानां सारम् अष्टमे वर्षे एव श्रीशङ्करभगवत्पादाः गृहीतवन्तः इति श्रूयते। इदञ्च पद्यं सर्वैः अपि श्रुतं, श्रूयमाणमपि अस्ति। अष्टवर्षे चतुर्वेदी, द्वादशे सर्वशास्त्रवित्, षोडशे कृतवान् भाष्यं, द्वात्रिंशे मुनिरभ्यगात् इति। अष्टवर्षे एव सः चतुर्वेदी नाम चतुरः अपि वेदान् ज्ञातवान्, तत्र स्थितान् सर्वानपि विषयान् हृदि स्थापितवान् इत्यर्थः। संस्कृते एकवचनान्तेन अपि प्रयोगः पूज्यानां विषये क्रियते। यतः अस्मिन्नेव श्लोके अष्टवर्षे चतुर्वेदी इति एकवचनान्तशब्दः अस्ति। सा च संस्कृतशैली। किन्तु कथनावसरे वयं भगवत्पादाः इति इति कथयामः उभयथापि व्यवहारः संस्कृते शोभते इति मनसि आकलनीयं भवतु तथैव अष्टादशानामपि पुराणानां सारमपि गृहीतवन्तः एतादृशं ज्ञानं अष्टमे वर्षे एव सम्पादितवन्तः इति कृत्वा तान् उद्दिश्य सर्वे कथयन्ति श्रुतिस्मृतिपुराणानाम् अयम् आलयः आलयः नाम आगरम् इत्यर्थः आकरः इत्यर्थः श्रुतौ ये अर्थास्सन्ति पुराणेषु ये अर्थास्सन्ति तान् सर्वानपि अर्थान् सः हृदये स्थापितवान् अथवा ते हृदये स्थापितवन्तः इति श्रुतिस्मृतिपुराणानाम् आलयम् इत्यनयोः पदयोः अर्थः करुणालयम् इति अस्ति श्रुतिस्मृतिपुराणानाम् आलयं करुणालयम् इति शब्दः अपि अस्ति तत्र करुणालयः नाम कारुण्यस्यापि सः आकरः इति भवद्भिः इदानीं श्रीशङ्करदिग्विजयस्थारः पठितः अस्ति तत्र इमं सन्दर्भमपि जानन्ति तत्र कस्सन्दर्भः अस्ति यदा शङ्करभगवत्पादाः ब्रह्मचारिणः आसन् तदा गुरुकुले ते न्यवसन् तदा भिक्षार्थम् अग्रहारं गतवन्तः तदा तत्र काचन ब्राह्मणी वटुम् एनं दृष्ट्वा उक्तवती एतादृशाय वटवे दातुं मम गृहे किञ्चिदपि नास्ति किं दातव्यं मया इदमपि किं जन्म इदं जन्म उद्दिश्य धिक् इति कथयन्ति महता विषादेन एकम् आमलकं दत्तवती तस्याः वचनं तथा कथयन्तीं दृष्ट्वा वचनं श्रुत्वा कथा कथयन्तीं च दृष्ट्वा एते करुणार्द्रहृदयाः अभवन् विद्यारण्यमहास्वामिनां शब्दः अस्ति पश्यन्तु इति दीनमुदीरयन्त्यसौ प्रददावामलकं रतीन्दवे करुणं वचनं निशम्य सोऽपि अभवज्ञाननिधिः दयार्द्रथीः दयार्द्रथीः इति शब्दप्रयुक्तः विद्यारण्यमहास्वामिभिः शङ्करभगवत्पादानां हृदयं तदा कारुण्येन पूर्णमभवत् अहो ईदृशी अवस्था अस्याः ब्राह्मण्याः इति झटित्येव ते भगवतीं लक्ष्मीं प्रार्थितवन्तः भगवती लक्ष्मीः अग्रेव आविरभूत् शङ्करदिग्विजये तयोः सम्भाषणमप्यस्ति अस्मिन् सारे तयोः सम्भाषणं नास्ति तत्र लक्ष्मीः भगवती लक्ष्मीः वटुम् उद्दिश्य कथयति इयं ब्राह्मणी पूर्वस्मिन् जन्मनि पुण्यं कर्म न कृतवती अतः इदानीं कथं वा अहं फलं ददानि भवान् यत् किमपि इच्छतु अहं भवते ददामि इति तदा वटुरूपिणः शङ्करभगवत्पादाः अवदन् हे भगवति अहं किमपि नेच्छामि यद्दातव्यम् अस्यै ब्राह्मण्यै दीयताम् ननु कर्म न कृतं खलु पुण्यं कर्म इति चेत् इदानीम् आमलकं दत्तवती अस्य दानस्य फलरूपेण तत्र धनं ददातु इति अत्यन्तं सन्तुष्टा भवद् भगवती लक्ष्मी लक्ष्मीः अस्मिन्नपि अस्मिन्नेव वयसि कथं वैराग्यम् अस्मिन् वटौ इति चिन्तयन्ति वटोः प्रार्थनाम् अङ्गीकृत्य तत्र आमलकवृष्टिमेव कारितवती इत्येषः प्रसङ्गः शङ्करदिग्विजये अस्ति सारे अपि सङ्ग्रहेण अस्ति तत्रैव अपरः अपि अंशः विद्यारण्यमहास्वामिभिरेव उल्लिखितः यदा भगवत्पादानां माता आर्याम्बा पूर्णानदीं गन्तुम् असमर्था अभवत् कदाचित् आतपे आगच्छन्तीं दृष्ट्वा करुणार्द्रहृदयाः भगवत्पादाः एवम् अचिन्तयन् इयं पूर्णानदी अस्माकं गृहस्य समीपे एव कुतो न वहेत् इति एवं विचिन्त्य भगवतीं पूर्णानदीं ते स्तुतवन्तः प्रातःकाले ग्रामे स्थिताः जनाः आर्याम्बा च पश्यन्ति पूर्णानदी जगत् भगवत्पादानां गृहस्य पुरतः एव प्रवहति तदा सर्वे जनाः अपि आश्चर्यचकिताः अकथयन् अहो अस्य वटोः महिमा इति एवं मातुर्विषये कारुण्यं प्रदर्शितं कापालिकप्रसङ्गोऽपि अस्ति अस्तु एवं कारुण्यं बाल्ये एव तैः दर्शितम् अत एव करुणालयम् इति शब्दं वयं तत्र कथयामः श्रुतिस्मृतिपुराणानाम् आलयं करुणालयम् इति कथयितॄणाम् आशयः एवम् अस्ति भगवत्पादानां चरितम् एवमेव कथयन्तः इति भवामः तदा तच्चरितं कर्णाभ्यां पेयं भवति अत्र इदं विशेषेण वक्तुम् इच्छामि तस्मिन् काले प्रसिद्धाः विद्वांसः आसन् कुमारलभट्टाः लोकेव विख्याताः आसन् मण्डनमिश्राः ते अपि कुमारलभट्टानां शिष्याः ते अपि विख्याताः आसन् यदा कुमारलभट्टान् द्रष्टुं शङ्करभगवत्पादाः प्रयागाभिमुखं प्रस्थिताः तदा तैः काचन वार्ता श्रुता कुमारलभट्टाः तुषाग्नौ उपविष्टवन्तः इति प्रायश्चित्तार्थम् एते झटिति कुमारलभट्टानां समीपं गतवन्तः तत्र तस्मिन् सन्दर्भे तयोः सम्भाषणं तयोः व्यवहारः अवश्यम् अस्माभिः स्मरणीयः अस्ति यदा भगवत्पादाः तत्र आगतवन्तः तदा कुमारलभट्टाः परितः स्थितान् शिष्यान् उद्दिश्य अकथयन् ते भगवत्पादाः अत्र आगच्छन्तस्सन्ति स्वागतेन अभ्यर्चयन्तु इति शिष्याः तथैव अकुर्वन् भगवत्पादानां हस्ते भाष्यमासीत् तदा एव भाष्यं प्रणीतम् तैः भाष्यं प्रणीतम् इति वार्तापि कुमारलभट्टैः श्रुता तेषां हस्ते स्थितं भाष्यं ते पठितवन्तः इति। पश्यन्तु तुषाग्नौ सन्ति कुमारलभट्टाः, परितः अपि अग्निः शरीरं दहति, तथापि ते भाष्यं पठितवन्तः। पठित्वा ते कथयन्ति अत्र विद्यारण्यमहास्वामिनां वचनमेव शृण्वन्तु। दृष्ट्वा भाष्यं हृष्टचेता कुमारः, प्रोचे वाचं शङ्करं देशिकेन्द्रं, लोके त्वल्पो मत्सरग्रामशाली, सर्वज्ञानो नाल्पभावस्य पात्रं, भवादृशां दर्शनमेव लोके विशेषतोऽस्मिन् समये दुरापम्, पुरार्जितैः पुण्यजयैः कथञ्चित् अद्य मे दृष्टिपथं गतो भूः। मम पुण्येनैव भवतां दर्शनम् अभवत् इति अकथयन् अत्र विद्यारण्यमहास्वामिनः एकं वाक्यं योजितवन्तः। लोके त्वल्पो मत्सरग्रामशाली, सर्वज्ञानो नाल्पभावस्य पात्रम्। अस्य तात्पर्यमिदमस्ति, प्रायः अन्यं दृष्ट्वा लोकः असूयामेव प्रदर्शयति। एतेपि विख्याताः पण्डिताः कुमारलभट्टाः, भगवत्पादास्तु सर्वज्ञाः, तान् दृष्ट्वा एतेषाम् असूयानोत्पन्ना कुमारलभट्टानां, यतः ये सर्वज्ञाः भवन्ति, ये सर्वान् विषयान् जानन्ति, तेषां कदापि क्षुद्रबुद्धिः न भवति। अतः तेषां विषये नाम शङ्करभगवत्पादानां विषये महान् आदरः प्रदर्शितः। शङ्करभगवत्पादाः अपि ते महान्तः विद्वांसः इति कृत्वा एव दर्शनार्थं गतवन्तः। पश्यन्तु तस्मिन् काले भगवत्पादाः गृहस्थान् द्रष्टुं गतवन्तः। किमर्थं? तत्र वैदुष्यमस्ति, तादृशाः विद्वांसस्सन्ति इति तान् द्रष्टुं ते गतवन्तः। एतादृशी मतिः तस्मिन् काले विदुषाम् आसीत् इति अस्मिन् ग्रन्थे विद्यारण्यमहास्वामिनः उक्तवन्तः। अस्मिन् सन्दर्भे इदम् अहं वक्तुमिच्छामि, माधवीयशङ्करदिग्विजये प्रायः उपद्विसहस्राः श्लोकाः सन्ति। तत्र बहवः विषयाः सङ्गृहीताः, विशेषेण मण्डनमिश्राणां भगवत्पादानां च यः वाक्यार्थः अभवत् स च वाक्यार्थः विस्तरेण निरूपितः, किन्तु स च वाक्यार्थः सर्वैः अपि अवगन्तुं न शक्यते। अतः आदौ भगवत्पादानां चरितं किम् इति बोधयितुम् अयं माधवीयशङ्करदिग्विजयसारः इति ग्रन्थः सज्जीकृतः। एतादृशग्रन्थान् अध्येतुं भवन्तः प्रवृत्ताः इति मम आनन्दं जनयति, तथैव आश्चर्यमपि जनयति। किमर्थम् आश्चर्यम्? अस्मिन् काले अपि एतादृशाः श्लोकाः मया पठनीयाः, एतादृशानां महात्मनां चरितम् अवगन्तव्यम् इति या मतिरस्ति, सा मतिः नितरां श्लाघनीया। कदाचित् अहं वेङ्कटसुब्रह्मण्य महोदयम् उक्तवान्, माधवीयशङ्करदिग्विजयसारं यः कोऽपि कण्ठे स्थापयति चेत् शोभते तमाम् इति। श्रीवेङ्कटसुब्रह्मण्यमहोदयः तस्यां दिशि महान्तं प्रयत्नं कृतवान्, तथैव तस्मिन् विषये श्री रघुनंदन महोदय अपि एषः आयोजितवान्। इदानीं मया श्रुतं पञ्चशताधिकाः छात्राः अत्र भागं गृहीतवन्तः इति। इदं तु अत्यन्तं सन्तोषं जनयत्येव इत्यत्र सन्देहः नास्ति। अहं तु नितरां सन्तुष्टः भगवत्पादानां चरितम् अध्येतुम् अध्यापयितुम् अध्यापने प्रेरणं दातुं ये अत्र सहकारं दत्तवन्तः तान् सर्वानपि भगवती शारदाम्ब अनुगृह्णातु। श्रीमच्छङ्करभगवत्पादाः अनुगृह्णन्तु इति सम्प्रार्थ्य सर्वेषां शुभं भूयात् इत्युक्त्वा विरमामि। सर्वे जनाः सुखिनो भवन्तु।
धन्यवादाः आचार्याः। पञ्चशतजनाः पञ्जीकरणम् उपपञ्चशतजनाः पञ्जीकरणं कृतवन्तः। केचन जनाः तत्र प्रात्यक्षिकेण आगत्य पठितवन्तः। उपषष्टिजनाः प्रात्यक्षिकेण आगत्य प्रतिपाठम् आगत्य पाठं पठितवन्तः, अभ्यासं च कृतवन्तः। केचन जनाः समयस्य कारणेन ते रेकार्डिङ्ग् श्रुत्वा अभ्यासं कृतवन्तः। एवम् अत्र उपषष्टिजनानां पारायण गणः निर्मितः इति वक्तुं शक्यते। शङ्करदिग्विजयसारस्य उपषष्टिजनानां पारायणगणः निर्मितः इति वक्तुं शक्यते। तदपि भवताम् आशीर्वादेन समभूत् इति आनन्दकरः विषयः।
मम आशीः अत्र न भवति, जगद्गुरूणाम् आशीषः तत्र भवन्ति। अनन्तरं भवान् प्रेरयिता अस्ति, सा रघुनन्दनमहोदयः तत्र कारकः अस्ति, भवान् प्रेरकः, सः स्वयं कारकः इति कृत्वा अहं भवन्तं रघुनन्दनमहोदयञ्च नितराम् अभिनन्दामि। अस्मिन् कार्ये विश्वनाथमहोदयः अपि सहकारं दत्तवान् इति अहं मन्ये, यतः सः सुब्रह्मण्यमहोदयेन वेङ्कटसुब्रह्मण्यमहोदयेन सहैव भवति इत्यपि जानामि। अतः सर्वान् त्रीनपि भगवत्पादाः अनुगृह्णन्तु, अस्मिन् मार्गे सदा भवन्तः प्रवर्तन्ताम् इति पुनः आशासे।
धन्यवादाः आचार्यः। नमस्काराः आचार्य।
अनन्त अनन्त धन्यवादाः। विश्वनाथ महोदयः,
सर्वेभ्यः राम राम राम, नमस्काराः। आङ्ग्लभाषायां वक्तव्यम् इति रघुनन्दनमहोदयेन आदिष्टः, आज्ञां पालयन् प्रयत्नं करोमि। टुडे वि हाव् सीन् वन् आफ् द रेरेस्ट् काम्बिनेशन्। देर् आर् फैव् रेर् काम्बिनेशन् विच् वि आर् able to enjoy and experience today. Pancha Vaishishtya Sammelanam iti vaktum shakyate. The first one is the Anugraha Kala. So today we are all in the Adhika Masa, also called as Purushottama Masa, a masa wherein we should be working towards enhancing our spiritual sadhana. And within that masa, we are in the Pradosha Vrata Dinam, just finishing the Pradosha Kala. And within that, a very, very Saumya Vasara, also called as Buddha Vasara, which is a Jnanaprada Vasara. So from a Kala perspective, it is one of the best time in which we are there. Anugraha Kaloyam. from the grantha perspective, again, if we see, again, like Sri Guravaha told us, Madhaviya Shankara Digvijaya and Tasya Granthasya Saraha, the essence of that grantha, again, a grantha which talks about our Guru Charitra. So from a grantha also, it is an anugraha grantha. From the anugraha purushaha or anugraha guravaha, if we see, just let us trace the parampara, how rich the parampara is. Sadashiva samarambham, from there to the Adishankara Bhagavat Padaha, in their parampara, Sri 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 Sureshwaracharyaha, coming down in that parampara, Sri 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 Vidyaranya Bhagavat Padaha, from there coming down to the parampara, our Shringeri current Jagodguravaha, from there, their blessings, Sri Ranganatha Sharma Mahodayaha, from their blessings, Sri Sri Mahabaleshwara Bhatta Mahodayaha. This is the rich, rich parampara and guru parampara which we are able to experience through here. So such gurus, anugraha, blessings have all come together on this occasion for this class, for this samaropa samarambha, but still it is a samarambha samarambha only today for us. That is the anugraha purusha guru nam upasthitihi. That is the third anugraha. The fourth one is anugraha bhashanam. So the anugraha bhashanam of our Sri Guravaha Bhatta Mahodayaha, speaking about the Adi Guru Shankaracharya, as mentioned in the Anugraha Grantha, written by again Jagadguru Sri Vidyaranya Mahaswaminaha. So again, the Anugraha Bhashanam, very rarely we get the Anugraha of the to hear the Amrita Vachanam, Ashir Vachanam of our Bhatta Mahodayaha Guravaha. So today we are really fortunate that in this online scenario, we are able to get that Amritavani and get that power recharged for all of us. Finally, the fifth one is the Anugraha Karyam, when all of us have assembled together to do the Guru Kainkaryam, as what Guravaha has told us, this Granthadhyayanam, which supports the, enables the Samskritadhyayanam, Samskrita Karyam, which finally supports the Desha Karyam, and the Atma Karyam finally, which all of us have to do. Therefore, Anugraha Kalaha, Anugraha Granthaha, Anugraha Purushaha Guravaha, Anugraha Bhashanam, Anugraha Karyam. All these five things have come together, and only those people who are really fortunate are able to come to this class today and experience this Anugraha live. Later on, our sadhakas who are going to listen to the recording are also going to enjoy this. But this katham akrita punyah prabhavati is what Shankara Bhagavat Padaha says. So vayam sarve krita punyaha eva is what I would like to share. Paunah punyena namaskaran vyaharami Shri Gurubhyah viramamicha. Ram Ram Ram. Dhanyavadaha.